श्रीराजमादङ्गीं न्यासम् ॐ अस्य श्रीराजमादङ्गी महामन्त्रस्य महामादङ्गेश्वरऋषिः पङ्क्तिच्छन्दः श्रीराजमादङ्गीश्वरी देवता ऐं बीजं सौ शक्तिः क्लीं कीलकम् श्रीराजमादङ्गीश्वरी महामन्त्रप्रसादसिद्ध्यर्थे जपे विनियोगः ऐं ह्रीं श्रीं ऐं क्लीं सौः ऐं सर्वजनमनोहरी अङ्गुष्ठाभ्यां नमः ऐं ह्रीं श्रीं ऐं क्लीं सौः ऐं सर्वमुखरञ्जनी तर्जनीभ्यां नमः ऐं ह्रीं श्रीं ऐं क्लीं सौः क्लीं ह्रीं श्रीं सर्वराजवशङ्करी मध्यमाभ्यां नमः ऐं ह्रीं श्रीं ऐं क्लीं सौः ऐं सर्वस्त्रीपुरुषवशङ्करी अनामिकाभ्यां नमः ऐं ह्रीं श्रीं ऐं क्लीं सौः ऐं सर्वदुष्टमृगवशङ्करी कनिष्ठिकाभ्यां नमः ऐं ह्रीं श्रीं ऐं क्लीं सौः ऐं सर्वसत्त्ववशङ्करी सर्वलोकवशङ्करी त्रैलोक्यं मे वसमानय स्वाहा सौ क्लीं ऐं श्रीं ह्रीं ऐं करतलकरपृष्ठाभ्यां नमः ऐं ह्रीं श्रीं ऐं क्लीं सौः ऐं सर्वजनमनोहरी हृदयाय नमः ऐं ह्रीं श्रीं ऐं क्लीं सौः ऐं सर्वमुखरञ्जनी शिरसे स्वाहा ऐं ह्रीं श्रीं ऐं क्लीं सौः क्लीं ह्रीं श्रीं सर्वराजवशङ्करी शिखायै वषड् ऐं ह्रीं श्रीं ऐं क्लीं सौः ऐं सर्वस्त्रीपुरुषवशङ्करी कवचाय हुं ऐं ह्रीं श्रीं ऐं क्लीं सौः ऐं सर्वदुष्टमृगवशङ्करी नेत्रत्रयाय वौषड् ऐं ह्रीं श्रीं ऐं क्लीं सौः ऐं सर्वसत्त्ववशङ्करी सर्वलोकवशङ्करी त्रैलोक्यं मे वसमानय स्वाहा सौ क्लीं ऐं श्रीं ह्रीं ऐं अस्त्राय पट ॐ भोर्भवस्वरोमिति दिग्बन्धः श्रीराजमादङ्गी ध्यानम् ध्यायेऽहं रत्नपीठे सुककुलपटितं शृण्वतीं श्यामलाङ्कीं न्यस्तैरेकाङ्क्रीं सरोजे जशि सकलतरां वल्लकीं वादयन्तीं कल्हार आबत्तमौलीं नियमितविलसत् शूलिकां रक्तवस्त्रां मादङ्गीं भूषिताङ्गीं मधुमितमुदितां चित्रगोद्भासिपालां श्रीराजमादङ्गी गायत्री ॐ शुक्रप्रियायै विद्महे श्रीकामेश्वर्यै धीमहि तन्नो श्यामला प्रचोदयात् लं पृथ्व्यात्मने गन्धं कल्पयामि हम आकाशात्मने पुष्पं कल्पयामि यं वायुवात्मने धूपं कल्पयामि रं अग्नियात्मने दीपं कल्पयामि वं अमृतात्मने अमृतं कल्पयामि सं सर्वात्मने सर्वोपचारभुजां कल्पयामि श्रीराजमादङ्गी महामन्त्रजपम् ऐं ह्रीं श्रीं ऐं क्लीं सौः ॐ नमो भगवते श्रीराजमादङ्गीश्वरी सर्वजनमनोहरी सर्वमुखरञ्जनी क्लीं ह्रीं श्रीं सर्वराजवशङ्करीं सर्वस्त्रीपुरुषवशङ्करीं सर्वदुष्टमृगवशङ्करीं सर्वसत्त्ववशङ्करीं सर्वलोकवशङ्करीं त्रैलोक्यं मे वसमानय स्वाहा सौ क्लीं ऐं श्रीं ह्रीं ऐं ऐं ह्रीं श्रीं ऐं क्लीं सौः ऐं सर्वजनमनोहरी हृदयाय नमः ऐं ह्रीं श्रीं ऐं क्लीं सौः ऐं सर्वमुखरञ्जनी शिरसे स्वाहा ऐं ह्रीं श्रीं ऐं क्लीं सौः क्लीं ह्रीं श्रीं सर्वराजवशङ्करी शिखायै वषड् ऐं ह्रीं श्रीं ऐं क्लीं सौः ऐं सर्वस्त्रीपुरुषवशङ्करी कवचाय हुं ऐं ह्रीं श्रीं ऐं क्लीं सौः ऐं सर्वदुष्टमृगवशङ्करी नेत्रत्रयाय वौषड् ऐं ह्रीं श्रीं ऐं क्लीं सौः ऐं सर्वसत्त्ववशङ्करी सर्वलोकवशङ्करी त्रैलोक्यं मे वसमानय स्वाहा सौ क्लीं ऐं श्रीं ह्रीं ऐं अस्त्राय पट ॐ भोर्भवस्वरोम् इति दिक्विमोकः श्रीराजमादङ्गी ध्यानम् ध्यायेऽहं रत्नपीठे सुखकुलपठितं शृण्वतीं श्यामलाङ्कीं न्यस्तैरेकाङ्क्रीं सरोजे जशि सकलतरां वल्लकीं वादयन्तीं कल्हार आबत्तमौलीं नियमितविलसत् शूलिकां रक्तवस्त्रां मादङ्गीं भूषिताङ्गीं मधुमितमुदितां चित्रगोद्भासिपालां श्रीराजमादङ्गी गायत्री ॐ शुक्रप्रियायै विद्महे श्रीकामेश्वर्यै धीमहि तन्नो श्यामला प्रचोदयात् लं पृथ्व्यात्मने गन्धं कल्पयामि हम आकाशात्मने पुष्पं कल्पयामि यं वायुवात्मने धूपं कल्पयामि रं अग्नियात्मने दीपं कल्पयामि वं अमृतात्मने अमृतं कल्पयामि सं सर्वात्मने सर्वोपचारभुजां कल्पयामि